इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः आर्टिफिशियल इंटेलिजेंस इति कृत्रिम बुद्धिमत्ताम् अध्येतुम् आग्रहं कृतवती। उक्तं च यत् स्किल द नेशन चैलेंज इत्यभियानं भविष्यस्य कृते कार्यबलं निर्मास्यति। प्रधानमंत्री नरेन्द्र मोदी देशस्य प्रथमं वंदे भारत शयनयान रेलयानं शीघ्रं लोकार्पयिष्यति। एतत् रेलयानं कोलकाता गुवाहाटी नगरयोः मध्ये प्रचलिष्यति। भारतीय रिजर्व बैंकेन उक्तं यत् देशस्य अर्थव्यवस्था निरन्तरं सुदृढताम् याति। केन्द्र सर्वकारेण चतुर्भ्यः नूतन श्रम संहिताभ्यः प्रारूपस्य नियमाः अधिसूचिताः, जनानां परामर्शाः च आमन्त्रिताः। अपि च गर्भवती महिलाभ्यः स्तनपानकारयित्रिभ्यः मातृभ्यः च प्रमुखायाः प्रधानमन्त्री मातृवन्दना योजनायाः नव वर्षाणि पूरितानि। अथ वार्ताः विस्तरेण। राष्ट्रपतिः द्रौपदी मुर्मुः अवोचत् यत् आर्टिफिशियल इंटेलिजेंस अर्थात् कृत्रिम बुद्धिमत्ता प्रौद्योगिक्या सह देशे सकारात्मक परिवर्तनानि आनयितुम् अयम् एकः अवसरः वर्तते। श्रीमती मुर्मुः राष्ट्रपति भवने आर्टिफिशियल इंटेलिजेंस इत्यस्मै कौशल विकासस्य SOAR इत्यस्यान्तर्गतं विशेष कार्यक्रमं संबोधयति स्म। राष्ट्रपतिना उक्तं यत् विविध क्षेत्रेषु आर्टिफिशियल इंटेलिजेंस इत्यस्य महत्वं तीव्रतया वर्धते, अथ च इदानीं सर्वेभ्यः अस्याः प्रौद्योगिक्याः अध्ययनम् अनिवार्यम् अभवत्।
टेक्नोलॉजी तथा आपके ज्ञान और कौशल का उपयोग समाज की सेवा करने, चुनौतियों के समाधान सीखने और दूसरों को आगे बढ़ाने के लिए होना चाहिए। सरकार डिजिटल पब्लिक इंफ्रास्ट्रक्चर को मजबूत कर रही है। भारत को AI ग्लोबल लीडर के रूप में स्थापित करने के लिए इंडिया AI मिशन चलाया जा रहा है। आर्टिफिशियल इंटेलिजेंस भारतीय अर्थव्यवस्था के ग्रोथ ड्राइवर के रूप में उभर रहा है। भारत विश्व की तीसरी सबसे बड़ी अर्थव्यवस्था बनने की ओर तेजी से बढ़ रही है।
राष्ट्रपतिवर्यया प्रौद्योगिक्याः माध्यमेन भारतस्य दायित्वपूर्ण भविष्याय आकार प्रदातुम् आह्वानं कृतम्। कार्यक्रमस्य अवधौ राष्ट्रपतिना विद्यार्थिभ्यः संसत्सदस्येभ्यश्च AI प्रमाणपत्राणि प्रदत्तानि। सममेव स्किल द नेशन चैलेंज इत्याख्यस्य राष्ट्रिय जागरूकताभियानस्य शुभारम्भोऽपि विहितः।
भारत सरकार के कौशल विकास और उद्यमिता मंत्रालय की SOAR यानी स्केलिंग फॉर AI रेडीनेस की पहल प्रशंसा का योग्य है। इस पहल के अंतर्गत प्री AI मॉड्यूल्स तैयार किए गए हैं। इस मॉड्यूल्स के द्वारा AI से जुड़े विषयों और मशीन लर्निंग के बेसिक कॉन्सेप्ट के बारे में भी जानकारी मिलती है। इस मिशन का उद्देश्य AI के बारे में जागरूकता बढ़ाना, आर्थिक आत्मनिर्भरता को बढ़ावा देना तथा एक टेक ड्रिवन देश के निर्माण में योगदान देना है।
रेलमन्त्रिणा अश्विनी वैष्णवेन घोषणा कृता यत् देशस्य प्रथमा शयनयानयुता वन्दे भारत रेल सेवा शीघ्रमेव गुवाहाटी कोलकाता नगरयोः मध्ये सञ्चालयिष्यते। रेलमन्त्रिणा उक्तं यत् आगामि 15 20 दिनेषु प्रधानमन्त्री नरेन्द्र मोदी अस्य रेलयानस्य उद्घाटनं करिष्यति। तेनोक्तं यत् रेलविभागेन स्वदेशीरूपेण निर्मितस्य वन्दे भारत शयनयानस्य अन्तिमं तीव्रगतियुतं परीक्षणं सफलतापूर्वकं पूरितम्। राजधान्यां नवदिल्ल्याम् अद्य वार्ताहरसम्मेलने श्रीवैष्णवः अवदत् यत् 16 शयनयानयुतम् एतत् यानम् 1,000-1,500 किलोमीटर यावत् यात्रायै आरप्स्यते। अमुना प्रतिपादितं यत् एतत् रेलयानं सुखप्रदं शयनासनं स्वचालितद्वारम् आधुनिक शौचालयं च समेत्य अत्याधुनिक सौविध्यैः च युतं वर्तते। अस्य रेलयानस्य भाटक विषयेऽपि रेलमन्त्रिणा विवरणम् उपस्थापितम्।
माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी आगामी कुछ ही दिनों में इस रूट पर पहली वंदे भारत स्लीपर को इनॉग्रेट करेंगे, फ्लैग ऑफ करेंगे। ये रेलवे के लिए और देश के लिए और हमारे यात्रियों के लिए एक बहुत ही बड़ा माइलस्टोन है।
वैश्विक समाह्वानेषु भारतीयार्थव्यवस्था निरन्तरं दृढगत्या समेधते। एतत् हि भारतीय रिजर्व बैंकेन स्वस्य नवीनतम वित्तीय स्थिरता प्रतिवेदने प्रतिपादितम्। एतत् प्रबल स्थानीय अभ्यर्थनायाः मध्यम मुद्रास्फीतेः विवेकपूर्ण व्यापकार्थिक नीतिनां समर्थनेन संभवं जातम्। प्रतिवेदनस्य अनुसारं अनुकूल वित्तीय परिस्थितिभिः वित्तीयापणसु स्वल्पास्थिरतायाः च स्थानीय वित्तीय प्रणाली सरला जायते। भूराजनीतिक घटनाक्रमं व्यापार सम्बद्ध समाह्वानानि च समेत्य बाह्यानिश्चिततानां कारणेन निकट भविष्ये संकटानां संचेतनापि प्रदत्ता। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अद्य समग्रे हि विश्वे जनाः 26,000+ नूतनवर्षस्य स्वागतं कुर्वन्तः सन्ति। राष्ट्रपतिः, उपराष्ट्रपतिः, प्रधानमन्त्री च नववर्षे जनेभ्यः शुभकामनाः प्रदत्तवन्तः। स्वीये शुभसन्देशे राष्ट्रपतिः उक्तवती यत् इदं नववर्षं समेषां जीवने ऊर्जसः सञ्चारं कुर्यात्, सकारात्मकपरिवर्तनानि च आनयेत्। तया आशा प्रकटिता यत् ऐषमः सर्वेभ्यः सुखं, शान्तिं, समृद्धिं च आनयेत्, अथ च दृढस्य, समृद्धस्य च भारतस्य निर्माणाय नवोर्जसः सञ्चारं करिष्यति। एकस्मिन् सामाजिकान्तर्जालीये सन्देशे उपराष्ट्रपतिना सीपी राधाकृष्णनेन अपि सकलेभ्यः जनेभ्यः नववर्षम् आलक्ष्य शुभसन्देशाः प्रदत्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिनापि जगतः शान्तेः, सुखस्य च कामना कृता। केन्द्रेण चतस्रीणां नूतनानां श्रमसंहितानां प्रारूपनियमाः अधिसूचिताः। एतासु श्रमसंहितासु वेतनसंहिता 20-29, औद्योगिकसम्बद्धसंहिता 20-20, सामाजिकसुरक्षासंहिता 20-20 तथा व्यावसायिकसुरक्षा स्वास्थ्यकार्यस्थितिसंहिता 20-20 इत्येताः अन्तर्भवन्ति। एते नियमाः कर्मचारिणः वेतनं, वृत्त्यावसराणां प्रकारान्, उपादानम्, अधिलाभांशं, कर्मकराणां सामाजिकसुरक्षां च निरूपयन्ति। गर्भवती महिलाभ्यः, स्तनपानकारयित्रिभ्यः, मातृभ्यः च प्रमुखायाः प्रधानमन्त्री मातृवन्दनायोजनायाः नववर्षाणि पूरितानि। इयं योजना गर्भवती महिलाभ्यः, स्तनपानकारयित्रिभ्यः, मातृभ्यः च स्वास्थ्ये, पोषणे, समुन्नयनाय वित्तीयं साहाय्यं प्रदातुम् आरब्धासीत्। प्रधानमन्त्री मातृवन्दना योजना केन्द्रसर्वकारस्य प्रमुखा योजना अस्ति। अस्याः उद्देश्यं समाजस्य आर्थिक सामाजिक रूपेण पश्चवर्तिवर्गाणां महिलाभ्यः मातृत्वावधौ आर्थिक साहाय्य प्रदानं वर्तते। प्रथम शिशवे 5,000 रूप्यकाणि, द्वितीया यदि कन्या जायते चेत् 6,000 रूप्यकाणां साहाय्यं प्राप्यते। एतत् अतिरिच्य पात्र महिलाभ्यः जननी सुरक्षा योजनायाः अन्तर्गतं प्रोत्साहन राशिः अपि प्रदीयते। महिला बाल विकास मन्त्रालयस्यानुसारं इदानीं यावत् अस्यां योजनायाम् आहत्य 4.25 कोटिः महिलाः पञ्जीकृताः, अथ च 19,000 कोट्यधिकरूप्यकाणि लाभार्थिभ्यः वितरितानि। इयं योजना गर्भावस्थायाः अवधौ पोषण स्वास्थ्य परीक्षणे सह मातुः शिशोः च स्वास्थ्यं सुनिश्चेतुं साहाय्यं विदधाति। भारत ऋतु विभागेन अस्मिन् मासे 5 दिनाङ्कपर्यन्तं ओडिसा, पंजाब, हरियाणा, चण्डीगढ़, दिल्ली इत्येतेषु प्रदेशेषु अतिसघन निहाराच्छादनस्य संभावना प्रकटितास्ति। असम, मेघालय, विहार, हिमाचल प्रदेश, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, उत्तर प्रदेश, उत्तराखंड, पश्चिम बंगाल, सिक्किम इत्येतेषु प्रदेशेषु श्वः यावत् सघन कुज्झटिकायाः स्थितिः भविष्यति। अद्य हिमाचल प्रदेशे, उत्तराखंडे, पश्चिम उत्तर प्रदेशे, दिल्ल्यां, राजस्थाने च अल्पवृष्टेः अपि संभावना विद्यते। इति वार्ताः।